अजेनारसिंहं त्रिनेत्रं मुरारिं सदा घोरदैत्येन्द्रनाशं दरारिं सदा भक्तपोषं रमेशं हरीशं सुशंकारि पद्मं गदां संधरन्तम् सदा वामभागे सुलक्ष्मी समेतं करालं हिरण्याक्षकं मारयन्तम् अनन्तादिरूपं रमेशं सुरेशं स्वभक्ताय स्तंभे सभायां भवन्तम् भजे नारसिंहं सदा भीमकायं सुघोरं स्वज्राभदं श्रंपरेशं रमालिंगितांगं सदा मृत्युघोरं स्वभक्तेषु कारुण्य निश्यन्दि भावं भजे स्तंभजातं स्वभक्ताय डिंभाय सौख्यं ददानं हिरण्याक्षदैत्यं निहत्यांत्रमालां स्वकंठे दधानं ऋषापिंगलाक्षं हसन्तं ग्रसन्तम् भजे देवमान्यं त्रिनेत्रं सुघोरं स्वपादाश्रितानां सदा रक्षयन्तम् ज्वलन्नेत्रवह्निं सुतीक्ष्णं नखौघं परित्राणदीक्षं स्वभक्ताभिवन्द्यम् भजे नारसिंहं सदा दुष्टघातं स्वलीलया दत्त नानावतारम् मत्स्यादिरूपं दधानं सुरूपं अनन्तादिदेहं भजे दानवारिम्